इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्यश्रव्यपरान्तर्जालीय प्रणाल्या वृत्त्यवसरे समायोक्ष्यमाणि प्रस्तुतार्थसंकल्पनापत्रस्योपरान्तम् एकस्मिन् आभासीय सम्मेलने सहभागं करिष्यति। अस्य सम्मेलनस्य प्रमुखेष् विषयेष् निवेशः, अर्थव्यवस्था, नवाचारं च अन्तर्भवन्ति। अत्रावधौ असौ एकं जनसमागमम् अपि सम्बोधयिष्यति। वृत्त्यवसराणां सृजनं प्रशासनस्य प्रमुखेष् केन्द्रस्थानेष् अन्यतममस्ति। प्रधानमन्त्रिणः दूरदृष्ट्या प्रेरितम् इदं प्रशासनं कार्यवृद्धिं प्रवर्धयितुं, कार्याणाञ्च बृहत्तरान् मार्गान् निर्मातुं च अनेकान् उपायान् विहितवत्। इदम् उपवेशनं प्रशासनोद्योग शिक्षा नागरिकाणां मध्ये सहयोगं वरिवर्धयिष्यति। विदेशमन्त्री डॉ एस जयशंकरः लंदन नगरे ब्रिटेन देशीयेन प्रधानमन्त्रिणा कीर स्टार्मर इत्यमुना साकं मेलनं कृतवान्, यत्र असौ द्विपक्षीयार्थिक सहयोगम् इतोपि समेधितुं, जनानां मध्ये च पारस्परिक सम्पर्कं च वर्धयितुं चर्चां समनुष्ठितवान्। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे डॉ जयशंकरः प्रधानमन्त्रिणः स्टार्मर इत्येतस्य सम्मेलने हर्षं प्रकटितवान्, अपि च प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति शुभकामनाम् अपि प्रदत्तवान्। डॉ जयशंकरेण उल्लिखितं यत् प्रधानमन्त्री स्टार्मर इत्यसौ युक्रेन संघर्षे ब्रिटेन देशस्य दृक्पातं विनिमयीकृतवान्। तदनु डॉ जयशंकरः स्वीयेन ब्रिटेन देशीयेन समकक्षेण विदेशसचिवेन डेविड लैमी इत्येतेन सहापि मन्त्रणां कृतवान्। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः विद्यार्थिनः स्वकार्यं प्रति एकाग्रतां स्थापयित्वा लक्ष्यं प्रति च प्रतिबद्धतां धारयितुम् आदिष्टवान्। नवदिल्ल्यां भारतीय जनसंचार संस्थानस्य IIMC इत्येतस्य 650वं दीक्षांत समारोहं सम्बोधयन् श्री वैष्णवः अवदत् यत् जनसंचारस्य विश्वं परिवर्तमानमस्ति। असौ विद्यार्थिनः सर्वदैव राष्ट्रं प्रथमम् इति प्रार्थयत्। श्री वैष्णवेन निगदितं यत् IIMC इतीदम् अत्याधुनिक सुविधाभिः युक्तं विश्वस्तरीयं जनसंचार संस्थानं भवेदिति। केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः नवदिल्ल्यां बेल्जियम देशस्य राजकुमार्याः एस्ट्रिड इत्येतस्याः नेतृत्वे एकेन प्रतिनिधिमण्डलेन सह मिलितवान्, तथा च स्वच्छ प्रौद्योगिकी रक्षा विद्युत क्षेत्राणि समेत्य अन्येषु क्षेत्रेषु च सहयोगाय चर्चां साधितवान्। यूरोपीया योगस्य अध्यक्षा उर्सुला वॉन डेर लियेन इत्येषा यूरोपस्य रक्षोद्योगं सैन्यक्षमताश्च प्रवर्धयितुम् एकां योजनां प्रस्तुतवती। ब्रुसेल्स इत्यत्र वार्ताहरान् संसूचयन्ती अध्यक्षा उक्तवती यत् यूरोप महाद्वीपः पुनः शस्त्रीकरणस्य युगे अस्ति, अपि च रक्षाव्ययं बृहत्तमे स्तरे समेधितुं सज्जो वर्तते। री आम यूरोप इत्याख्यस्याः योजनायाः अन्तर्गतं 8 बिलियन डॉलर मितस्य रक्षाव्ययस्य संकलनं भविष्यति इति सूच्यते। केन्द्रीय मार्ग परिवहन राजमार्ग मन्त्री नितिन गडकरी, नवीनाक्षयोर्जा मन्त्री प्रहलाद जोशी च ह्यः नवदिल्ल्यां हाइड्रोजन शक्तियुतानां अत्यधिक कार्यभार ट्रक वाहनानां प्रथम परीक्षणस्य ध्वजारोहणं कृतवन्तौ। श्री गडकरी अवदत् यत् हाइड्रोजन इति भविष्यस्य इन्धनं वर्तते, यत्र उत्सर्जनं न्यूनीकृत्य ऊर्जायाः स्वावलम्बनं वर्धयित्वा भारतस्य परिवहनक्षेत्रस्य परिवर्तनस्य असीमित क्षमता वर्तते। पुरूषाणां ICC चैम्पियनशिप ट्रॉफी इत्येतस्यां क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ भारतीय दलेन उपान्त्यचक्रीये द्वन्द्वे ऑस्ट्रेलिया दलं चतुर्भिः स्तोभैः पराजितम्। एतेन साकमेव भारतं निर्णायक चक्रके द्वन्द्वे प्रविष्टवत् इति वार्ताः।